असर्जिवक्वारध्येयधारौ धियामनोता प्रथमो मनीषि दशस्वसारो अधिदानो अव्येदम् दिवन्हिंसदनान्यच्छ एते जनस्य दिव्यस्य कव्यैरधीषु भानो न हृष्येभिरिन्दुः रजो मृधीरमृतो वर्त्येभिर्मृजानो विभिर्गोभिरद्भिः ृषावृष्टेरोपदम् सुरस्तैपवामानो ऋषदीर्तेपयोगोः सहस्रमृत्वा पतिभिर्वचो विदग्भस्मभिः सोरो अन्वम् विजाति ऋजादृणाधिद्रक्षसः सदांसि पुनानयम् रवोर्मिः विवादान् निश्चोपरिष्टात्तु जनापदेन ये अन्ति दूरादोपनायमेषाम् सप्रत्रवन्नव्यासे विश्ववारसूक्ताय पदक्रीणिहि प्राचाः ये दुष्टहासो मनुषा बृहन्तस्तांसे अस्यामगुरुकृत्पुरुक्षो देवा पुराणो अपस्वा अर्गा अस्मभ्यम् लोकातनयानि भूरि ब्रह्माक्षेत्रमुर्ज्योतिम् शिवभज्योऽङ्गसूर्यम् दृशयेरिः